एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं नेपालोद्योग व्यवसायी महासंघेन देशस्य अर्थतन्त्रस्य सुधारस्य कृते नैजक क्षेत्रस्य सामूहिक विषयान् संकलय अवधारणापत्रं प्रस्तुतमस्ति। वाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्य महासंघस्य संयोजकेन भगीरथ सापकोटा सहितेन प्रतिनिधिमण्डलेन सुदृढस्य अर्थतन्त्रस्य निर्माणस्य आधारः सबलं नैजक क्षेत्रं सुदृढं पूर्वाधारश्चेति लक्ष्ययुतं परामर्शपत्रं प्रधानमन्त्रिणे ओलिने समर्पितमस्ति। महासंघेन गत भाद्रमासस्य सप्तमे दिवसे नैजक क्षेत्रस्य समस्यानां समाधानस्य विषये आयोजितात् विमर्शन कार्यक्रमात् प्राप्तः निष्कर्षः उद्योग व्यवसायिनां समस्यानां समाधानोपायाश्च अवधारणापत्रे समाविष्टः सन्ति। तदवसरे प्रधानमन्त्री ओली सर्वकारेण अर्थतन्त्रस्य सुधाराय योजनाबद्धतया कार्यं विधीयमानमस्ति। उद्योगी व्यवसायिभि उत्पादनोत्पादकत्वयोः अभिवृद्धये स्वस्वस्थानात् कार्यं विधातव्यमिति अगदत्। गृहमन्त्री रमेश लेखकः कथयति भ्रष्टाचारस्य विषये शून्य सहनशीलतायाः नीति अवलम्बनाय सर्वकारः स्पष्टः दृढश्च वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः राज्यव्यवस्था सुशासन समितेः ह्यस्तनोपवेशे गृहमन्त्री लेखकः भ्रष्टाचार निर्मूलीकरणस्य विषये सर्वकारः स्पष्टोस्तीति चर्चयन् एतदर्थं सर्वकारेण विधि विधेयकञ्च प्रस्तुते स्तः इति उक्तवान्। गृहमन्त्री लेखकः संसदि प्रस्तुतं विधेयकं यथाशीघ्रं समितितः निष्कर्षे प्रापय्य आगामिनि अधिवेशने प्रस्तुत्य च तस्मै पूर्णता प्रदानत्वेन कार्यं कर्तुं समितिम् अनुरुणत्। तदवसरे गृहमन्त्री लेखकः कस्यचित् आपराधिक कार्यस्य अनुसन्धानं जनानां मुखदर्शनस्य अपेक्षया तथ्यप्रमाणानाम् आधारेण भवतीति समस्पष्टयत्। उपवेशे अधिकार दुरुपयोगानुसन्धानायोगस्य प्रमुखायुक्तः प्रेमकुमार राई भ्रष्टाचारस्य नियन्त्रणं न केवलम् आयोगेन सम्भवतीत्यतः सर्वैः मिलित्वा एतत् कार्यं करणीयमिति उदैरयत्। अष्टचत्वारिंशदधिकद्विसहस्रतम विक्रमवर्षीयम् अधिकार दुरुपयोगानुसन्धानायोगाधिनियमं संशोधयितुं निर्मितं विधेयकम् आधृत्य विहिते विमर्शने प्रमुखायुक्तः राई विधीनां प्रभावकारितया क्रियान्वयने तदन्तर्गतं स्थित्वा कार्येषु च विहितेषु सत्सु भ्रष्टाचारस्य न्यूनीकरणं सम्भवतीति विचारं व्यक्तवान्। उपवेशी सांसदः भ्रष्टाचार सम्बद्ध विषयेण सुशासने प्रभावः सृज्यमानोऽस्ति, जनेषु नैराश्यम् उत्पन्नश्च वर्तते इत्यतः भ्रष्टाचार सम्बद्ध विधेयकं समय एव पारितीकृत्य क्रियान्वेतव्यमित्यत्र बलं प्रादुः। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह भाषते राजनीतिक स्थिरतायै वर्तमान सर्वकारः निर्मितोऽस्ति। नेपाली कांग्रेस दलस्य चितवन जनपद समित्या ह्य आयोजिते दीपावली विशेष कार्यक्रमे मन्त्री सिंह देशे राजनीतिक स्थिरतां संस्थाप्य जनानां पीडां शीघ्रं शमयितुं सर्वकारः प्रयत्नशीलोऽस्तीति अगदत्। उपप्रधानमन्त्री सिंह विधेय शासनस्य स्थापनाय सर्वकारः प्रयत्नरतोऽस्तीति अवोचत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ निगदति परम्परागत कार्यशैल्या परिवर्तनेन विना विकास निर्माणस्य कार्येण तीव्रता न गृह्यते। मन्त्रालयस्य प्रथम त्रैमासिक प्रगति समीक्षायां मन्त्रालय स्तरीय विकास समस्या समाधान समितेः ह्य उपविष्टे उपवेशे च मन्त्री गुरुङ मन्त्रालयान्तर्गतान् निकायान् पारदर्शितया व्यावहारिक विधिसम्मतानि कार्याणि सम्पादयितुं निरदिशत्। समृद्ध नेपालः सुखिनो नेपालिनश्चेति राष्ट्रिय लक्ष्यं पूरयितुं विभिन्न मन्त्रालयेषु समन्वयं विधाय कार्यं विधेयमित्यत्र बलं ददत् मन्त्री गुरुङ। न्यूनतोऽपि एकवर्षाभ्यन्तरे कर्मचारिणां स्थानान्तरणं न कर्तव्यमिति प्रावोचत्। उपवेशे मन्त्रालयस्य सचिवः राधिका अर्यालः सर्वकारेण शतदिनानां कृते गृहीतं लक्ष्यं सम्पूर्ण कार्याणि च सम्पादितानि सन्तीति असूचयत्। उपवेशी मन्त्रालयस्य योजना प्रमुखः रामकृष्ण अर्यालः मन्त्रालयेन एतदन्तर्गत निकायश्च मासत्रयस्य अभ्यन्तरे सम्पादितानां कार्यप्रगतिं प्रस्तुतवान्। अत्रान्तरे संचार सूचना प्रविधि मन्त्रालयस्य अन्तर्गतेषु निकायेषु रेडियो नेपालः कार्यसम्पादने उत्कृष्टः सम्भूतोऽस्तीति उद्घुष्टं वर्तते। अस्मिन् वर्षे भ्रातृपूजायाः शुभमुहूर्तः अस्यैव कार्तिक मासस्य अष्टादश दिवसे रविवासरे प्रातः सप्तत्रिंशत् कलोत्तर एकादशवादने वर्तते। नेपाल पञ्चाङ्ग निर्णायक विकास समितेः स्तनोपवेशेन भ्रातृपूजायाः शुभमुहूर्तस्य विषये निर्णीतमस्ति इति समितेः कार्यकारी निर्देशकः सूर्यप्रसाद ढुंगेलः असूचयत्। भ्रातृपूजायाः अवसरे पश्चिमाभिमुखो भूत्वा भ्रातृटीकायाः ग्रहणं कर्तव्यमिति समित्या ज्ञापितमस्ति। नेवार समुदायस्य किजा पूजापि अष्टादशी दिवसे एव वर्तते इति समित्या ज्ञापितं वर्तते। नेपालीनां द्वितीयं महत्वपूर्णम् एव पञ्चक पर्व अद्यतः प्रारभ्यते। अद्य धनत्रयोदशी पर्व वर्तते। यमदीपदानं श्वः बुधवासरे भविष्यति। काकपूजा धन्वन्तरी जयन्ती अपि श्वः बुधवासरे एव वर्तते। अस्मिन् वर्षे श्वपूजा नरक चतुर्दशी दीपमालिका लक्ष्मीपूजा च कार्तिकस्य पञ्चदश दिवसे बृहस्पतिवासरे वर्तते। षोडश दिवसीय अमावस्या तिथिरस्ति। अस्मिन् दिने एव पञ्चकस्य किमपि पर्व नास्ति इति पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितम् वर्तते। कार्तिकस्य सप्तदश दिवसीय शनिवासरे गोपूजा गोवर्धन पूजा बलिपूजा महपूजा च वर्तन्ते। अस्मादेव दिवसात् पञ्चचत्वारिंशदधिक एकादश शततमः नेपाल संवत्सरः प्रारप्स्यते। कार्तिक मासस्य द्वाविंशे दिवसे बृहस्पति वासरे षष्ठी पर्व अस्ति इति समित्या ज्ञापितम् वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा दलस्य विपन्नोत्थान समन्वय विभागे दशजनाः मनोनीतवान् अस्ति। सभापति देउवा दलस्य केन्द्रीय सदस्यस्य डाक्टर गोपाल दहितस्य संयोजकत्वे संघटितेऽस्मिन् विभागे विधानस्य अनुसारेण ह्य सदस्यान् मनोनीतवान् अस्ति इति दलस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। सर्वोच्च न्यायालयेन नेकपा एमाले दलाय दल कार्यालय भवनस्य निर्माणाय भूमेः दानं गृहीत्वा अधिकार हस्तान्तरण प्रभृतीनि कार्याणि न कर्तुम् अल्पकालिकान्तरिमादेशः प्रदत्तो वर्तते। न्यायाधीशस्य सुनील कुमार पोखरेलस्य एकल न्यायपीठेन ह्य एमाले दल कार्यालयं निर्मातुं व्यवसायिना मीनबहादुर गुरूङ इत्यनेन दाने प्रदत्तां भूमिं गृहीत्वा कार्यं न कर्तुम् अल्पकालिकान्तरिमादेशः प्रदत्तोऽस्ति। व्यवसायिना गुरूङ इत्यनेन एमाले दलाय विहितस्य भूमेः दानस्य निर्णयस्य निरस्तीकरणस्य याचनया अधिवक्त्रा डाक्टर ज्ञानबहादुर बस्नेत इत्यनेन पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य प्रारम्भिकं श्रवणं विदधानेन न्यायालयेन एवम् आदेशः प्रदत्तोऽस्ति। सर्वोच्च न्यायालयेन अस्यैव कार्तिकस्य षड्विंशाय दिवसाय पक्षद्वयं विमर्शनाय आहूतमस्ति। न्याय परिषदा एकत्रिंशत् जनपदेभ्य मुख्य निर्वाचनाधिकृतान् नियोक्तुं निर्वाचनायोगे नामानि परामृष्टानि सन्ति। परिषदा आगामिनः मार्गशीर्ष मासस्य षोडश दिवसे आयोक्ष्यमाणस्य उपनिर्वाचनस्य कृते मुख्य निर्वाचनाधिकृतानां निर्वाचनाधिकृतानां च नियुक्तये नामानि परामृष्टानि वर्तन्ते। परिषदा सम्प्रत्यैव संघटितस्य उपभोक्तृ न्यायालयस्य न्यायाधीशपदे काष्ठमण्डप जनपद न्यायालयस्य न्यायाधीशः रामप्रसाद शर्मा सदस्य पदे गेहेन्द्र राज रेग्मी च नियुक्तुं परामृष्टे स्तः। सल्यान जनपदे लघु ट्रक यान दुर्घटनायां त्रयो जना मृताः अष्टौ आहताश्च वर्तन्ते। सल्यान जनपदस्य कपुरकोट ग्रामपालिकाया षष्ठ वडा क्षेत्रस्य दुवदे स्थानत धान्यादिकम् आरुह्य सिनवाङ स्थानं प्रति प्रस्थीयमानस्य लघु ट्रक यानस्य दुर्घटनायां त्रयो जना मृताः इति कपुरकोट ग्रामपालिकाया अध्यक्ष दुर्गापुन असूचयत्।